अयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य G20 शिखर सम्मेलने भागं ग्रहीतुं जोहान्सबर्ग नगरं प्रति गमिष्यति। 16-2000 वर्षे द्विपाक्षिक यात्रायाः अनन्तरं 18-2000 वर्षे 23-2000 वर्षे च ब्रिक्स शिखर सम्मेलने भाग ग्रहणानन्तरं दक्षिण अफ्रीका देशं प्रति प्रधानमन्त्रिणः मोदिनः इयं चतुर्थाधिकारिक यात्रा वर्तते। जोहान्सबर्ग नगरे अस्मदीय वार्ताहरैः संसूचितं यत् अस्मिन् वर्षे वैश्विक दक्षिणे चतुर्थं G20 शिखर सम्मेलनम् आयोजितं भवति इति।
This is the first G20 summit that will be happening on African soil. In that context, we'll bring the spotlight on the development issues of Africa as also of the Global South. It may also be recalled that it was during India's G20 presidency in 2023 that the African Union was inducted into G20 as permanent member. The summit will be important for India to ensure continuity of its priorities in the G20 after having hosted a very successful presidency in 2023. On the margins of G20 summit, PM will be participating in the IPSA, India, Brazil, South Africa leaders meeting, as well as holding bilateral meeting with several leaders who will be present in Johannesburg.
JDU इति संयुक्त जनता दलस्य प्रमुखः श्रीनीतीश कुमारः दशमवारं बिहारस्य मुख्यमन्त्रित्वेन शपथं गृहीतवान्। पटनानगरस्य ऐतिहासिक गांधी मैदान इत्यत्र प्रातः 11:30 शपथ ग्रहण समारोहः अभवत्। कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी तथा अनेके नेतारः मान्याश्च उपस्थिताः आसन्। नीतीशकुमारः एनडीए इत्यस्य राष्ट्रिय लोकतांत्रिक गठबंधनस्य विधायकदलस्य नेतृरूपेण निर्वाचितः आसीत्। पटनानगरे गठबंधनस्य पंच घटकदलानां नवनिर्वाचित विधायकानां संयुक्त सभायां एषः निर्णयः स्वीकृतः। कृषि कृषक कल्याण मंत्री श्री शिवराज सिंह चौहानः अवोचत् यत् आहारेषु 8% वृद्धिः अभिलिखिता अस्ति इति। नवदिल्ली नगरे 25-2000 सस्योत्पादनस्य अन्तिम अनुमानस्य विमोचनानन्तरं श्री चौहानः एतत् उक्तवान्। मन्त्री अवोचत् यत् भारते गत 10 वर्षेषु आहारेषु कोटितोप्यधिक वृद्धिः अभवत् इति। भारतस्य अन्ताराष्ट्रिय चलचित्र महोत्सवस्य 25-2000 षट्पञ्चाशत्तमं संस्करणं ह्यः गोवा नगरे समारब्धम्। चलचित्रस्य 8-दिवसीयः महोत्सवः अस्य मासस्य 28-दिनाङ्कपर्यन्तं प्रचलति। उद्घाटन समारोहे सूचना प्रसारण राज्यमंत्री डॉक्टर एल मुरुगनः, गोवा राज्यस्य मुख्यमंत्री प्रमोद सावंतः, सूचना प्रसारण सचिवः संजय जाजुः, महोत्सव निर्देशकः शेखर कपूरः, अभिनेतारः नंदमुरी बालकृष्णः, अनुपम खेरः, मनोज जोशी, श्रीलीला चलचित्र निर्माता राकेश ओम प्रकाश मेहरा च उपस्थिताः आसन्। डॉक्टर एल मुरुगन वर्यः पणजी नगरे IFFI इत्यस्मिन् वेव्स फिल्म बाजार इत्यस्य उद्घाटनम् अपि अकरोत्। राष्ट्रीय अन्वेषण अभिकरणेन देहली रक्त दुर्गस्य भयोत्पादक घटनायां संलग्नाः इतोपि चत्वारः प्रमुखाः अभियुक्ताः निगडिताः। NAI इत्यनेन एकस्मिन् वक्तव्ये प्रोक्तं यत् दिल्ली न्यायालयस्य प्रस्तुति आदेशानुसारं जम्मू कश्मीरस्य श्रीनगरतः 4 अभियुक्ताः निगडिताः। गुरु तेग बहादुर वर्यस्य बलिदान दिवसस्य स्मरणे भक्तानां सुगम यात्रां सुनिश्चेतुं भारतीय रेल विभागेन 2 विशेष रेल याने संचालिते भविष्यतः। रेल राज्य मंत्रिणा रवणीत सिंह बिट्टू इत्यनेन एषा घोषणा विहिता। रेल मंत्रालयः अवोचत् यत् पटना साहिब विशेष रेल यानस्य, ओल्ड दिल्ली विशेष रेल यानस्य च यात्रा श्वः आरभ्यते इति। वार्ताः।